नमस्सर्वेभ्यः। अद्य प्रौढमनोरमायाः स्वादिसन्धिप्रकरणे तृतीयः पाठः, अक्टोबर् मासस्य अष्टादशः दिनाङ्कः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। ध्यायन् ध्यायम् परम् ब्रह्मस्मारम् स्मारम् गुरोर्गिरः सिद्धान्तकौमुदी व्याख्याम् कुर्मः प्रौढमनोरमाम्। ऐ एम् एक्स्ट्रीम्ली सारी फार् द डिले। ऐ हेव् सम् इश्यूस् वित् द स्क्रीन् शेरिङ्ग्, सो ऐ हेव् टु रिक्वेस्ट् पाल्स् हेल्प् अण्ड् इट् टुक् सम् टैम् टु सेट् अप् द स्लैड् शो। सो अद्य पञ्चसन्धिप्रकरणे अन्तिमः पाठः, स्वादिसन्धिप्रकरणस्य अन्तिमः भागः अवशिष्टः अस्ति। रोसुपि इति अग्रिमं सूत्रम्। अन्नः रेफादेशः स्यात् न तु सुपि इति सूत्रार्थः कौमुद्यां दीयते। रोः अपवादः, ऋत्वप्रकरणं पश्यामश्चेत् ससजुषो रुः, सकारान्तस्य शब्दस्य ऋत्वं भवति वदान्ते, पदस्य सकारान्तस्य पदस्य ऋत्वं भवति। ततः अहन् इति सूत्रमस्ति, अहन् इति शब्दस्यापि ऋत्वं भवति, पदान्तस्य अहन् इत्यस्य ऋत्वं भवति इत्यर्थः। अहन् इति शब्दः सकारान्तः न, तथापि विशिष्य ऋत्वं विधीयते। तस्य अपवादत्वेन असुपि रः, सुपि परे ऋत्वं भवति, असुपि परे रेफादेशः भवति। ऋत्वस्य रेफादेशस्य च व्यत्ययः अन्तरः अस्ति जानीमः, यथा हषि च अतोरोरप्लुतारप्लुते इत्यादीनि सूत्राणि रोरेव भवन्ति, न तु केवलस्य रेफस्य। अतः अह्नः रेफादेशः स्यात् न तु सुपि। सो सुपि न भवति, तद्भिन्नस्थले रेफः भवति, सुपि परे तु ऋत्वं भवति इति सूत्रार्थः। अहरः अहर्गणः इति दीयते, अहः अहः इति स्थिते, अहन् अहन् इत्यस्ति। तत्र उभयोः अहन् शब्दयोः, प्रथमस्य अहन् शब्दस्य असुपि परे रेफः भवति, पुनः अन्ते यः अस्ति, अन्ते तु असुपि, सुपरकत्वं नास्ति, अतः तत्रापि उभयत्र रेफादेशः अहरहः इति रूपम्। एवम् अहर्गणः, उभयत्रापि रेफः श्रूयते। असुपि किम्? अहोभ्याम्, अहन् भ्याम्, सुप्रत्यये परे ऋत्वं भवति, ऋत्वे कृते हषिच इत्यनेन उत्वम्, अहोभ्याम् इति रूपम्। अत्र अहन् इति ऋत्वम्, एतत्तु कौमुद्यामस्ति। प्रौढमनोरमायां रोसुपीति सूत्रस्य विषये किमपि नोच्यते, तत्र एकं वार्तिकमस्ति, रूपरात्रिरथन्तरेषु ऋत्वं वाच्यम्, अहन् शब्दस्य एतेषु परेषु ऋत्वम्। वस्तुतः रोसुपि इत्यनेन रेफादेशः स्यात्, किन्तु तद्बाधित्वा ऋत्वमेव विधीयते। अहोरूपं किं प्रयोजनम्? उत्वमेव प्रयोजनम्। हषिच इत्यनेन उत्वे अह उ रूपम्, आद्गुणः इत्यनेन गुणे अहोरूपम्। एवम् अहोरात्रः, गतमहो रात्रिरेषा, अहः गतम्, रात्रिः एषा इति अहन् शब्दस्य रात्रिशब्दे परे ऋत्वं रोः उत्वं, गतमहो रात्रिरेषा भिन्नं पदम्। एकदेशविकृतस्य अनन्यत्वात् अहोरात्रः, गतमहो रात्रिरेषा इत्यत्र तु अहन् इति भिन्नं पदं, रात्रिः इति पृथक् पदम्, समासः भवति अहश्च रात्रिश्च इति। तत्र अहोरात्रः, तत्रापि ऋत्वं भवति अहोरात्रः। तत्र कः प्रश्नः? अहोरात्रः इत्यत्र अहस्सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः इति अच् समासान्तः, यथा महाराजः राजन् शब्दः समासे तत्पुरुषसमासे राजाहस्य किभ्यश्च इत्यनेन टच् समासान्तः विधीयते, सः अकारान्तः सम्पद्यते। तत एव राजा राजानौ राजानः, किन्तु महाराजः महाराजौ महाराजाः अकारान्तत्वम् एवमत्रापि रात्रिशब्दस्य अकारान्तत्वं सम्पाद्यते तदा रात्र इति भवति. अयं रात्रिशब्दो वा इति प्रश्नः. शुड् वी डू रुत्व हियर् आर् नाट्? इस् इट् स्टिल् रात्रिशब्द? एकदेशविकृतम् अनन्यवत्. यस्य वदस्य कश्चन एकः भागः एव विकृतः सः अन्यः न. So when we change a small part of something, it does not cease to be that. I mean, it does not change its identity. Ataha akarantatve krute api ayam ratri shabda eva. Ataha atrapi rupa ratri arthantaresha ruttum vachyam ityanena ruttum bhavati aho ratraha iti rupam. Ratranhaha iti pumstvam. Ratri shabda strilingaha kinto ratra yada samasantaha kriyate तदा रात्रान्हाः पुंसि इति सूत्रमस्ति. तेन पुंस्त्वमपि भवति अहोरात्रः इत्यत्र. अहोरथान्तरं रूप रात्रि रथान्तरेषु ऋत्वं भवति अहं शब्दस्य. अन्यत्र असुपि रेफः सुपि ऋत्वम् इति नियमः. अहरादीनां पत्यादिषु वा रेफः इत्यपि वार्तिकमस्ति. विसर्गापवादः. अहन् पति इत्यस्ति. अहः पतिः इति समासे अहन् पति इति स्थिते रोसुपि इत्यनेन रेफः भवति. खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गः भवति. इदानीं किं करणीयम् इति प्रश्नः. वस्तुतः कुप्वोः कः पौच इत्यनेन उपध्मानीयः स्यात्, किन्तु अनेन वार्तिकेन विकल्पेन रेफादेशः विसर्गस्य रेफादेशः विधीयते. क्षम्यतां, विसर्गस्य अपवादत्वेन रेफादेशः विधीयते. इन्स्टेड् आफ् विसर्ग अहर् पति, सो खरवसानयोर्विसर्जनीयः इत्यस्य अपवादत्वेन रेफस्य स्थाने रेफ एव भवति. तदा अहर्पतिः इति रूपं सिद्ध्यति. अहर्पतिः, गीर्पतिः, धूर्पतिः सर्वत्र विसर्गस्य अपवादत्वेन रेफादेशः. पक्षे विसर्ग उपध्मानीयौ. पक्षे नाम वा रेफः. रेफस्य रेफादेशः वैकल्पिकः. तदा किं भवति? न भवति चेत् खर्वसानयोर्विसर्जनीयः इत्यनेन विसर्गः, कुप्वोः कः पौच इत्यनेन उपध्मानीयः भवत्येव. अतः अहः पतिः इत्यपि रूपम् अहः पतिः इत्यपि रूपम्. विसर्गस्य एकं रूपम्, उपध्मानीयस्य एकं, रेफस्य एकम्, एवं त्रीणि रूपाणि सम्भवन्ति. अहरि अहरादीनामिति सम् केरेक्टर्स् आर् मिस्सिङ्ग् इन् दिस् बिकास् दट्स् वट् वी change the system. It is not being displayed from my system, so there is some phone problem. So just the visarga or that aharadinam iti. Okay. So aharadinam patyadishu iti uchyate. Uvayatra adishabdaha prakare. Prakarathakaha adishabdaha. अहस्सदृशानाम् इति. वस्तुतः गणः नास्ति. सर्वदा यत्र गणः दीयते, हि जनरलि गिव्स् अ क्लास्, से स्वादयः अथवा सर्वादीनि सर्वनामानि इत्युक्ते सर्वादि सर्व विश्व उभय इति गणः पठितः. अत्र तु विशिष्य गणः नास्ति. अहशब्दः, अहन् शब्दः, पतिशब्दः अस्ति. तत्सदृशानां शब्दानां यथा गीर्पतिः, धूर्पतिः इत्यपि अस्ति. प्रयोगमाश्रित्य अन्येषामपि भवति. उभयत्र आदिशब्दः प्रकारे. तेन स्वर्चक्षो रथिनः सत्यशुष्मः. विप्रः कविः काव्येम स्वर्चन. स्वर्चक्ष इत्यस्ति. स्वर् चक्ष इति स्थिते तत्रापि विसर्गस्य अपवादत्वेन रेफः. एवं स्वर्चन इत्यदरापि स्वर्चन इत्यत्र रेफस्य स्थाने रेफादेशः दृश्यते अन्यत्र अपि. नाट् जस्ट् इन् दिस् काण्टेक्स्ट् बट् इन् बोत् केसेस् बेस्ड् आन् प्रयोग वि केन् टेक् सिमिलर् वर्ड्स्. अग्रिमं सूत्रमस्ति ढलोपे पूर्वस्य दीर्घोणः. ढरेफौ लोपयतीति तथा ढ्रलोपः नाम ढरेफौ लोपयति. यस्मिन् वर्णे परतः ढकारस्य लोपो भवति अथवा रेफस्य लोपो भवति தஸ்மின் வர்ணே பரே அர்த்தாத் டகார ரேபாத்மகே பரே ढोढ़े लोपः रोरि इत्यनेन ढकारस्य ढकारे परे लोपः रेफस्य रेफे परे लोपः विधीयते तथा लोपे कृते तस्मिन् ढकारे रेफे वा परे पूर्वस्य अणः दीर्घः स्यात् पूर्वत्र विद्यमानस्य अण् सर्वदा पूर्वणकारेण अ इ उ इत्येतेषां दीर्घः भवति तथा पुनारमते पुनर्रमते इत्यस्ति तत्र रोरि इत्यनेन रेफस्य लोपः पुनरमते इति स्थिते तत्र अकारस्य दीर्घे पुनारमते हरिरम्यः हरिर्रम्यः रोरि इत्यनेन लोपे इकारस्य दीर्घे हरिरम्यः एवं शम्भूराजते शम्भुर्राजते रेफस्य लोपे पूर्वस्य उकारस्य दीर्घे शम्भूराजते एवं ढकारस्य विषये अपि भवति अणः किं दृढः वृढः इति दत्तम् त्रिहु हिंसायां वृहु उद्यमने अस्ति तत्र त्रिढो वृढ इति प्रतीकं स्वीकृत्य मनोरमायाम् ऊदित्वेन वेट्कत्वात् यस्य विभाषा इति निष्ठायां न इट् धत्व धत्व श्रुत्व ढलोपाः त्रिहु वृहु इति उदित् धातवः ऊकारः इत् यत्र यत्र ऊकारः इत्संज्ञां प्राप्नोति तत्र स्वरति सूति सूयति धून्य उदितो वा इति सूत्रमस्ति आर्धधातुकस्य ड्वलादेः इत्यनेन इडागमः विधीयते सः इट् विकल्पेन भवति सो वेरेवर् द धातु हेपन्स् टु बि उदित् दीर्घ ऊकार एस् इत् देन् द इडागम इज विकल्प अतः इडाग दट इज द जनरल थिंग किंतु निष्ठायां किं भवति यस्य विभाषा ऑल दोस विच हैव विच आर वेट दट इज वा इट ऑल दोस धातुस विच आर कैरेक्टराइज्ड एज वेट दट इज ऑल दिस स्वरति सूति सूयति धून्य उदित दोस विच हैव ऑप्शनल इट इन अदर केसेस विल नॉट हैव इडागम इन निष्ठा निष्ठा तक्तवतु यस्य विभाषा इत्यस्ति यस्य धातोः अन्यत्र कुत्रापि विभाषया इट् विधीयते तस्य धातोः निष्ठायाम् इट् न भवति अतः त्रिः त निष्ठा इत्यनेन क्तप्रत्ययः भूतार्थे तत्र होढः इति सूत्रमस्ति झलि पदान्ते च हकारस्य ढकारः त्रिढ् त झषस्तथोर्धोधः इत्यनेन तकारस्य धकारः त्रिढ् ध ष्टुनाष्टुः इत्यनेन ष्टुत्वं त्रिढ् ढ इदानीं ढोढे लोपः इत्यनेन ढकारस्य लोपः सो त्रिढ् ढ इत्यत्र पूर्वढकारस्य लोपे तृ ढ इदानीम् अयम् अण् न ढलोपे पूर्वस्य अण एव दीर्घं विधीयते ऋकारः अण् न अतः अत्र दीर्घः न भवति इति प्रत्युदाहरणम् अत एव अणः किं त्रिढः वृढः इति दत्तं दीक्षितैः अनण्त्वात् ऋकारस्य दीर्घः न भवति यत्तु प्राचा प्रत्युदाहृतं दृढ इति तन्न इदानीम् अत्र कः प्रश्नः दीक्षितैः त्रिढः वृढः इति दीयते त्रिः धातोः त्रिः इति धातुः तत्र त्रिः इति स्थिते तस्य क्तप्रत्ययः अथवा वृः इति स्थिते तस्य तप्रत्ययः इति दीयते किन्तु पूर्वत्र प्राचां ग्रन्थे दृढः इति दत्तम् दे सौण्ड् सिमिलर् दृढः दृढः वृढः किन्तु दृढ इति उदाहरणं न युक्तम् किमर्थम् तत्र ढलोपस्यैव अभावात् यत्र ढोढे लोपः इत्यनेन ढलोपः भवति तत्रैव ढलोपे पूर्वस्य दीर्घोणः इत्यस्य प्रवृत्तिः दृढः इत्यत्र तु ढलोपस्यैव प्रवृत्तिः न भवति किमर्थम् कथं निष्पत्तिः दृढशब्दस्य तथा हि दृढः स्थूलबलयोः इति सूत्रेण दृम्हेः नकार हकारयोः लोपः तकारस्य ढत्वञ्च निपात्यते ನಾವು ಅಸಿದ್ಧಕಾಂಡಸ್ಥತ್ವಸ್ಯ ಇಹ ಪ್ರವೃತ್ತಿಃ ದಾದೇರ್ ಧಾತೋರ್ಘಃ ಇತ್ಯಾದಿ ಘತ್ವೇನ ಬಾಧಾತ್. If you look at the previous prakriya, how did we derive vṛdha? So nishtha hōḍhaḥ ityanena dhatvam dhakāraṁ āśritya caśastathordhodhaḥ ityanena dhatvam punaha ṣṭutvam ṣṭutve krute dhakārasya dhakāra parakatvam asti. Kintu ಅತ್ರ ಕಿಂ ಭವತಿ ದೃಹ್ ದೃಂಹ್ ಇತಿ ಧಾತುಃ ತತ್ರ ನಿಷ್ಠಾಯಾಂ ಪರತಃ ಹೋಢಃ ಇತಿ ನ ಪ್ರವರ್ತತೆ. ವಿ ಕೆನಾಟ್ ಅಪ್ಲೈ ಹೋಢಃ. ಕಿಮರ್ಥಂ ಹೋಢಃ ಇತ್ಯಸ್ಯ ಅಗ್ರಿಮಂ ಸೂತ್ರಮಸ್ತಿ ದಾದೇರ್ ಧಾತೋರ್ ಘಃ. ಯದಿ ಧಾತುಃ ದಕಾರಾದಿರ್ ಭವತಿ ತರ್ಹಿ ಧತ್ವಂ ಬಾಧಿತ್ವಾ ಘತ್ವಂ ಪ್ರವರ್ತತೆ. ಕವರ್ಗಸ್ಯ ಚತುರ್ಥಾಕ್ಷರಃ ಘಃ. ಯಥಾ ದುಃ ಧಾತೋಃ ದುಘ್ ಇತಿ ಘಕಾರಃ ಭವತಿ. ಏವಂ ದೃಹ್ ಇತ್ಯಸ್ಯ ದೃಘ್ ಇತ್ಯಾದಿ. ಯದಿ ಧಾತುಃ ದಕಾರಾದಿಃ ತರ್ಹಿ ಧತ್ವಂ ನ ಭವತಿ ಘತ್ವಂ ಭವತಿ. ಯದಿ ಘತ್ವಂ ಭವತಿ ತರ್ಹಿ ಧಕಾರಸ್ಯ ಅತ್ರ ಪ್ರಾಪ್ತಿರೇವ ನ ಭವತಿ. ಇಫ್ ವಿ ಅಪ್ಲೈ ದಾದೇರ್ ಧಾತುರ್ಘಃ ವಿ ಕೆನಾಟ್ ಹಾವ್ ದ ಢಕಾರ ಅಟ್ ಆಲ್. ಸೊ ಹೌ ಡು ವಿ ಡಿರೈವ್ ದೃಢಃ? ನಿಪಾತನಾತ್ ಸೂತ್ರೇ ಪ್ರಯುಕ್ತತ್ವಾತ್ ನಿಪಾತ್ಯತೆ. ಕಿಂ ನಿಪಾತ್ಯತೆ? ದೃಢ ಸ್ಥೂಲಬಲಯೋ ಇತಿ ಸೂತ್ರೇಣ ದೃಂಹೇಃ ದೃಂಹ್ ಇತಿ ಧಾತುಃ. ದೃಂಹ್ ಅನುಸ್ವಾರಃ ಅಸ್ತಿ. ಅನುಸ್ವಾರಃ ನಕಾರಾತ್ ನಿಷ್ಪನ್ನಃ ನಷ್ಟಾಪದಾಂತಸ್ಯ ಶಲಿ ಇತ್ಯನೇನ ಅನುಸ್ವಾರಃ. ಅತಃ ವಸ್ತುತಃ ದೃ ನ ಹ್ ಇತಿ ನಕಾರಃ. ದೃಂಹೇಃ ನಕಾರ ಹಕಾರಯೋಃ ಲೋಪಃ. ಸೋ ದೃಂಹ್ ತ ಇತ್ಯಸ್ತಿ ತತ್ರ ನಕಾರಸ್ಯ ಲೋಪಃ ಹಕಾರಸ್ಯಾಪಿ ಲೋಪಃ ತಕಾರಸ್ಯ ಧತ್ವಂ. ಅಂಡ್ ತಕಾರ ಇಸ್ ಡೈರೆಕ್ಟ್ಲಿ ಕನ್ವರ್ಟೆಡ್ ಟು ಢಕಾರ. ಆಲ್ ದೀಸ್ ತ್ರೀ ಆರ್ ಬೈ ನಿಪಾತನ ಸಿದ್ಧ ಪ್ರಕ್ರಿಯಸ್ಯ ನಿರ್ದೇಶ ನಿಪಾತನಂ. ಯತ್ರ ಪ್ರಕ್ರಿಯಾಂ ನಿರ್ವೋಢುಂ ಸೂತ್ರಂ ನಾಸ್ತಿ ತತ್ರ ನಿಪಾತನಾತ್ ಸಿದ್ಧ್ಯತಿ. ಅತಃ ಸಾಕ್ಷಾತ್ ಅನೇನ ನಿಪಾತನೇನೈವ ನಕಾರಸ್ಯ ಲೋಪಃ ಹಕಾರಸ್ಯ ಲೋಪಃ ತಥಾ ತಕಾರಸ್ಯ ಧತ್ವಂ ನಿಪಾತ್ಯತೆ. ನತು ಅಸಿದ್ಧಕಾಂಡಸ್ಥ ಧತ್ವಸ್ಯ ಇಹ ಪ್ರವೃತ್ತಿಃ ದಾದೇರ್ ಧಾತೋಃ ಇತಿ ಘತ್ವೇನ ಬಾಧಾತ್. ಸೊ ಯು ಕೆನಾಟ್ ಅಪ್ಲೈ ದ ಯೂಶುವಲ್ ಧತ್ವ ದೇರ್. ಸೊ ದೇರ್ ಆರ್ ನೋ ಟು ಢಕಾರಸ್. ಅತಃ ಢೋಢೆ ಲೋಪಃ ಇತ್ಯಸ್ಯ ಪ್ರವೃತ್ತಿಃ ನಾಸ್ತಿ. ತಥಾ ಸತಿ ಢಲೋಪೇ ಪೂರ್ವಸ್ಯ ದೀರ್ಘೋಣಃ ಇತ್ಯಸ್ಯ ಪ್ರವೃತ್ತಿರಪಿ ನ ಭವತಿ. ಸೊ ಇಟ್ ಕೆನಾಟ್ ಬಿ ಗಿವನ್ ಆಸ್ ಅ ಪ್ರತ್ಯುದಾಹರಣೆ ಫಾರ್ ಢಲೋಪೆ ಪೂರ್ವಸ್ಯ ದೀರ್ಘೋಣಃ. ನಚ ಇಡಭಾವಃ ಢತ್ವಂಚ ನಿಪಾತ್ಯತಾಂ ಧತ್ವಷ್ಟುತ್ವ ಢಲೋಪಾಸ್ತು ಭವಿಷ್ಯಂತ್ಯೇವ ಇತಿ ವಾಚ್ಯಂ. ದ ಆರ್ಗ್ಯುಮೆಂಟ್ ಇಸ್ ಇನ್ಸ್ಟೆಡ್ ಆಫ್ ಡೂಯಿಂಗ್ ಆಲ್ ದಿಸ್ ಇನ್ ದ ನಿಪಾತನ ಇನ್ಸ್ಟೆಡ್ ಆಫ್ ರಿಮೂವಿಂಗ್ ದ ಹಕಾರ ಸಾರಿ ಕಿಂ ಕೃತಮತ್ರ ನಕಾರಸ್ಯ ಹಕಾರಸ್ಯ ಲೋಪಃ ತಕಾರಸ್ಯ ಧತ್ವಂ ಇತ್ಯುಕ್ತಂ. ಇನ್ಸ್ಟೆಡ್ ಆಫ್ ದಟ್ ಇಡಭಾವಃ ಅಯಂ ಧಾತುಃ ಸೇಟ್ ಅತಃ ಇಡಭಾವಃ ನಕಾರಸ್ಯ ಲೋಪಃ ಹಕಾರಸ್ಯ ಧತ್ವಂ. ವಿ ಕ್ಯಾನ್ ಆಲ್ವೇಸ್ ಡೂ ಹಕಾರ ಫಾರ್ ಢಕಾರ ಫಾರ್ ಹಕಾರ. ಹೋಢಃ ಇತ್ಯನೇನ ಯಥಾ ಕ್ರಿಯತೆ ತಥಾ ನಿಪಾತನಾತ್ ಹಕಾರಸ್ಯ ಧತ್ವಂ ಭವತಿ ಇತಿ ವಕ್ತುಂ ಶಕ್ಯತೆ. ತದಾ ದೃಢ ತ ಅಗ್ರೆ ಯದ್ಯತ್ ಕಾರ್ಯಮಸ್ತಿ ಝಷಸ್ತಥೋರ್ಧೋಧಃ ಇತ್ಯನೇನ ಧತ್ವಂ ಷ್ಟುನಾಷ್ಟುಃ ಇತಿ ಷ್ಟುತ್ವಂ ಧೋಲೇ ಲೋಪಃ ಇತಿ ಲೋಪಃ ಸರ್ವಮಪಿ ಶಾಸ್ತ್ರದೃಷ್ಟ್ಯಾ ಭವಂತ್ಯೇವ ಕಿಲ ಇತಿ. ನಚ ಇಡಭಾವಃ ಢತ್ವಂ ಚ ನಿಪಾತ್ಯತಾಂ ಧತ್ವ ಷ್ಟುತ್ವ ಢಲೋಪಾಸ್ತು ಭವಿಷ್ಯಂತ್ಯೇವ ಇತಿ ವಾಚ್ಯಂ. ಕಿಮರ್ಥಂ? ತಥಾ ಸತಿ ಪರಿದೃಢಯ್ಯ ಇತ್ಯತ್ರ ಲ್ಯಪಿ ಲಘುಪೂರ್ವಾತ್ ಇತಿ ನೇಹ ಅಯಾದೇಶಃ ನ ಸ್ಯಾತ್. ಪರಿದೃಢೀ ಕನ್ಯಾ ಇತ್ಯತ್ರ ಅಣೀಯೋಃ ಅನಾಶಯೋಃ ಗುರುಪೋತ್ತಮಯೋ ಶ್ಯಂಗೋತ್ರೇ ಇತಿ ಶ್ಯಂಚ ಸ್ಯಾತ್ ಧಲೋಪಸ್ಯ ಅಸಿದ್ಧತ್ವೇನ ಗುರುಪೋತ್ತಮತ್ವಾತ್ ಇತಿ ಭಾಷ್ಯೇ ಸ್ಥಿತಂ. ಸೊ ಇಫ್ ಯು ಡೂ ದಟ್ ಐ ಮೀನ್ ಡಿರೈವ್ ದಿಸ್ ಫ್ರಮ್ ದ ನಾರ್ಮಲ್ ವೇಸ್ ವಾಟ್ ಹ್ಯಾಪನ್ಸ್ ವೆನ್ ಯು ಆರ್ ಡೂಯಿಂಗ್ ಸಂಥಿಂಗ್ ಎಲ್ಸ್ ಆನ್ ದಿಸ್ ಇತಃ ಅಗ್ರೇ ಯತ್ರ ಕಾರ್ಯಾಣಿ ಕ್ರಿಯಂತಿ ಯಥಾ ನಿಚ್ ಕ್ರಿಯತೆ. ಇದಾನೀಂ ಕಿಂ ಉಕ್ತಂ ದೃಢ ಢ ಇ ಧಕಾರ ದ್ವಯಮಸ್ತಿ ಕಿಲ हकारस्य ढत्वेन एकः निष्पन्नः निष्ठा तकारस्य धत्वे तस्य ष्टुनाष्टुः इति ष्टुत्वे एकः ढकारः ढकारद्वयमस्ति. इदानीं ढोढे लोपः इत्यस्य असिद्धत्वात् यपि लघुपूर्वात् इति अयादेशः करणीयः. We require an aya for the nich using yapi laghu purva. If the swara before the nich is a laghu swara, then there is ayadesha. Now, if we assume there are two dhakaras here, this is not laghu. Sanyoge guru ittenena purvasya rakarasya gurutvam sampadyate. Tatha neha ayadesha nasyat. So, if you go by the previous thing which Dikshita said, साक्षात् दृ ढ एक एव ढकारः अस्ति, हकारः लुप्तः नकारोऽपि लुप्तः, तर्हि अयं लघुपूर्वः. सो दिस् इस् लघुपूर्व बिकास् देर् इस् नो संयोग फालोयिङ्ग्. यदि तु ढकारद्वयं तत्र अङ्गीक्रियते तर्हि ढलोपस्य असिद्धत्वात् यपि लघुपूर्वात् इति णेः अयादेशः न स्यात्. एवमेव परिदृढी कन्या इत्यस्ति तद्धितरूपं, तत्र अणिन्योः अनार्षयोः गुरूपोत्तमयोः, उपोत्तमः यदि गुरुवर्णः, उत्तमः इस् द अन्तिमवर्णः, उपोत्तमः इत्युक्ते द पेनल्टिमेट् लेटर्, सः यदि गुरुः भवति तर्हि ष्यङ् प्रत्ययः विधीयते. यदि अत्र ढकारद्वयम् अङ्गीक्रियते तर्हि अयं गुरूपोत्तमः, उपोत्तमः गुरुः, अतः ष्यङ् स्यात्, ष्यङ् न इष्यते. पूर्वत्र निचः अयादेशः इष्यते लघुपूर्वादिति न सिद्ध्यति, पुनश्च ष्यङ् न इष्यते किन्तु गुरूपोत्तमत्वात् ष्यङः प्रसक्तिः भवति. अतः दृढ इत्यत्र हकारस्य ढत्वम् इति नाङ्गीक्रियते, नकारहकारयोर्लोपः तकारस्य ढकारः इत्येव निपातनम् अङ्गीकर्तव्यम्. एवं कृते ढोढे लोपः इत्यस्य अप्रवृत्त्या ढलोपे पूर्वस्य दीर्घोणः इत्यस्य प्रसक्तिरेव नास्ति. यत्र प्रसक्तिः नास्ति तत्र प्रत्युदाहरणत्वेन कथं दीयते? अतः दृढः वृढः इत्येव दातव्यं, न तु दृढः इति. यत्तु प्राचा व्याख्यातम्, देयर इज अनदर आर्ग्युमेंट विच इज put forth to support dridhaha. Yattu prasa vyakhyatam drumhereva idam nipatanam driha vruddhau iti tu prakrityantaram. Now they say there are two dhatus, drumh iti ekaha dhatuhu, driha vruddhau iti aparaha dhatuhu. Prathamasya dhatuhu dridha iti nipatanam bhavati. दृढवृद्धौ इति तु प्रकृत्यन्तरम् धात्वन्तरम् इत्यर्थः. दट् इस् अ सेपरेट् धातु. तस्य किं भवति? तस्य निष्ठायाम् आगमशास्त्रस्य अनित्यत्वात् इडभावे अयमपि सेट्, किन्तु अर्धधातुकस्य इड्वलादेः इति अनित्यम् इति क्वचिदङ्गीक्रियते. इन् सम् केसेस् इट् इस् ट्रीटेड् अस् अनित्य टु अकौण्ट् फार् सम् फार्म्स्. अतः आगमशास्त्रस्य अनित्यत्वात् इडभावे इट् न भवति. वा दृहमुहष्णुहष्णिहामित्यत्र वा इति योगविभागात् पक्षे घत्वा भावे. सो दे आर् डूइङ्ग् अ लाट् आफ् रनिङ्ग् अराउण्ड्. सो होढः दादेर्धातोर्घः वा दृहमुहष्णुहष्णिहाम् इति सूत्रमस्ति, सूत्रक्रमः. हकारस्य ढकारः यदि धातुः दकारादिः तर्हि घकारः, दृह मुह श्नुह श्निह एतेषां धातूनां तु वाघः विकल्पेन घत्वं पक्षे ढत्वम्. सो दोस् धातूस् दृह मुह श्नुह श्निह विल् हाव् बोत् घकार एण्ड् ढकार. तत्र तु दृह धातुः नास्ति, तथापि वा इति योगविभागात् वा दृह मुह इष्टत्वा वा इति योगविभागः क्रियते. अतः सर्वे यत्र यत्र इष्यते प्रयोगे तत्र घत्वं विकल्प्यते. अतः योगविभागात् पक्षे घत्वा भावे, यत्र घत्वं नास्ति तत्र होढः इति ढत्वं भवति. तथा ढत्वं कृत्वा ढलोपे पूर्वस्य दीर्घोणः इत्यनेन ढकारं लोपयित्वा तदा प्रत्युदाहरणं दीयते. सो दिस् प्रत्युदाहरण गिवन् अस् दृढ इस् फार् अ डिफरेण्ट् दृढधातु दृढ़ास्तु लवलयोः इति निपातनं तु दृम्ह इति धातोरेव दृढधातोः निपातनं नास्ति किन्तु कथञ्चित् ततः दृढ इति रूपं साध्यते इति क्वचित् समर्थ्यते तन्न तदपि न सम्भवति किमर्थम् उभयोरपि निपातन अभ्युपगमात् दृह धातोः तथा दृढधातोः उभयोरपि दृढः इति निपातनम् इति अङ्गीकृतमस्ति तदाः वामनः सो वामनः धातुवृत्तिकारः वन् आफ् द धातुवृत्तीस् वाज़ रिटन् बै वामन अथ दृहिः प्रकृत्यन्तरमस्ति तस्यापि एतन्निपातनं नलोपवर्जम् दृह् इत्यत्र नलोपः करणीयः दृह् इत्यत्र तु नलोपः नास्ति किन्तु तस्यापि एतन्निपातनम् इति वामनेन स्पष्टम् उक्तमस्ति युक्तं च एतत् एतदपि युक्तमेव किमर्थम् अन्यथा हि अस्मात् नेः अयि न स्यात् ह्यङ् च स्यात् Now, if we don't take this as nipatana, then in this case, what he told previously, Neha ayadeshaha na bhavati laghupurvatva bhavat, guru pottamatva shyang bhavati iti aduchyate, tad asya api bhavati. The same apatti is shown for this, which is not desired. Okay? Therefore, we have to accept that both dhatus have the nipatana. Nipatanyattu hakarasya lopaha, takarasya sakshat dhatvam. अतः ढोढे लोपः इति ढलोपस्य अभावे ढलोपे पूर्वस्य दीर्घोणः इत्यस्य प्रसक्तिरेव नास्ति तथा सति प्रत्युदाहरणत्वेन अणः किं दृढः इति तन्न दातव्यम् निरीक्षितानां मतम् एनि क्वेश्चन् अग्रे कौमुद्या उच्यते मनस् रथ इत्यत्र ऋत्वे कृते हसि च इति उत्वे रोरि इति लोपे च प्राप्ते मनस् रथ ससजुषोरुः इत्यनेन ऋत्वं मन ऋ रथ इदानीं हसि च इत्यनेन उत्वं करणीयं वा रोरि इत्यनेन रेफस्य लोपः करणीयः वा इति प्रश्नः तत्र किमुच्यते परत्वात् विप्रतिषेधे परं कार्यम् इति सूत्रमस्ति तत्रैव इदं सूत्रम् उच्यते कौमुद्यां विप्रतिषेधे परं कार्यं तुल्यबलविरोधे परं कार्यं स्यात् यत्र उभयोः सूत्रयोः तुल्यबलत्वम् अर्थात् उभयोः स्वतन्त्र उदाहरणं विद्यते तत्र परं कार्यं रोरि इति परं हसि च इति अष्टमाध्याये अस्ति रोरि इति क्षम्यताम् हसिज इति षष्ठाध्याये अस्ति रोरि इति अष्टमाध्याये अतः परत्वात् रोरि इत्येव स्यात् इति लोपे प्राप्ते पूर्वत्रासिद्धम् इति रोरि इत्यस्य असिद्ध्यत्वात् उत्तमेव अष्टमाध्याये तृतीयपादे अस्ति रोरि हसिज इति तु षष्ठाध्याये पूर्वत्रासिद्धम् इत्यनेन त्रिपाद्याः असिद्धत्वात् उत्तमेव भवति न तु लोपः मनोरथः इति रूपं मनस् रथ मन ऊ रथ सोरि मन ऋ रथ हसिट इति उत्वे मन ऊ रथ आद्गुणः इत्यनेन गुणे मनोरथः उत्तमेवेति मनोरमायां सिद्धासिद्धयोः अतुल्यबलत्वेन विप्रतिषेधे परम् इत्यस्य अप्रवृत्तौ निष्प्रतिपक्षत्वात् उत्तमेव भवति One is Siddha, the other is Asiddha. Asiddha is invisible, so there is no Virodha. Nishpratipakshatvat, there is no opponent. Only when there is an opponent, there is a clash. Yadi ubhayohu siddhatvam, tatraiva virodha bhavitum arhati. Atratu nishpratipakshatvat. Pratipakshaha nama hashicha itito asti. Rori ityanena saha asya virodha kalpaniyaha. Kinto rori itito asiddhaha. So when it cannot see rori, there is no clash. If there is no clash, Vipratishethe Paramkaryam will not apply. Taduktam Purvatra Siddhe Nasti Vipratishethaha Abhava Ruttarasya Sayamtu Sadharanaha Niyamaha Purvatra Siddhe Nama Trikandyam Nasti Vipratishethaha Tripadyam Nasti Vipratishethaha Vipratishethaha Vipratishethe Paramkaryam Iti Nabhavati కుతోన భవతి అభావాద్ ఉత్తరస్య ఉత్తర పరసూత్రస్య అభావాద్ సిన్స్ పరసూత్ర ఇస్ అసిద్ధ వి విల్ నాట్ హావ్ విప్రతిషేధ ఆపరేటింగ్ ఇన్ ద త్రిపాది ఏతేన విభక్తి కార్యం ప్రాక్ పశ్చాద్ ఉత్తమత్వే ఇత్యాది వ్యాఖ్యాతం అదశబ్దస్య విషయే అరసోసేర్దాదుదోమః ఇతి ఉత్తమత్వం ఇత్యాది క్రియతే కింతు ముత్వస్య ముత్వాత్ పూర్వమేవ విభక్తి కార్యం సో విభక్తి ప్రత్యయః తత్ర యద్యత్ కార్యం సంధిః తత్సర్వం కృత్వా అనంతరమేవ ముత్వం క్రియతే నోచేత్ యథా అద ఔ ఇత్యస్తి ఇదానీం కిం కరణీయం వృద్ధీకరణీయః వా ఆదౌ ఉత్తమత్వే వా ఇతి ప్రశ్నే కిం భవతి యది ఆదౌ ముత్వం క్రియతే తదా అము ఔ అంవౌ ఇతి రూపం స్యాత్ తథా న క్రియతే ఆదౌ వృద్ధిః అదౌ ఇతి కృత్వా తతః ముత్వే అము ఇతి రూపం సిద్ధ్యతి అత ఏవ విభక్తి కార్యం ప్రాక్ పశ్చాత్ ఉత్తమత్వే అన్యత్ సర్వం కార్యం సమాప్య అంతే ఏవ ఉత్తమ మత్వం చ క్రియతే ఏతత్తదోశ్లోపో అకోరనైసమాసే హలి ఇది అగ్రిమం సూత్రం అకకారయోః ఏతత్తదోః యః సుః ఏతచ్ఛబ్దాత్ తచ్ఛబ్దాచ్చ యః సుప్రత్యయః తస్య లోపః స్యాత్ హలి హలిపరే లోపః భవతి నతు నైసమాసే ఇది సూత్రార్థః ఏష విష్ణుః ఏష సు విష్ణుః ససజశోరుః ఇతి ఋత్వే ఏష ఋ కరవసాన విసర్జనీయ ఇది విసర్గే క్షమ్యతాం అత్ర విసర్గ న భవతి హషిచ ఇత్యనేన ఉత్వే ఏషో విష్ణు ఇది స్యాత్ కింతు న భవతి యు విల్ నాట్ హావ్ ఏషో విష్ణు సు ప్రత్యయస్యైవ లోపః సో ఏష సు విష్ణు సు ప్రత్యయస్య లోపే ఏష విష్ణు ఏవం స శంభుః ఏతత్తదోః యః సుః తస్య లోపః స్యాత్ హలి హలి పరే సు ప్రత్యయస్య లోపః సూత్రే సు ఇది పృథక్ పదం లుప్తషష్ఠీకం సులోపః ఇది ఉచ్యతే ఏతత్తదోః యః సుః తస్య లోపః ఇది క్రియతే కిమర్థం పృథక్ పదం ఏతత్తదోః గత సంఖ్యాభిధాయి యః సుః తస్య ఇత్యర్థః హి టేక్స్ సు యాజ్ అ సెపరేట్ పద ఏతత్తదోః యః సుః తస్య లోపః హి డస్ నాట్ డైరెక్ట్లీ స్టేట్ ఏతత్తదోః సులోపః కిమర్థం కః అర్థః ఇదానీం ఏతత్తదోః గత సంఖ్యాభిధాయి యః సుః యః సు ప్రత్యయః ఏతచ్ఛబ్దగతాం సంఖ్యాం అభిధత్తే అథవా తచ్చబ్దగతాం సంఖ్యాం అభిధత్తే తస్య లోపః ఇత్యర్థః ఏతత్తదోః విహితః ఇతి వ్యాఖ్యానేతు పరమస దదాతి పరమైష దదాతి ఇత్యాదౌ న స్యాత్ యు డోంట్ ట్రీట్ ఇట్ దిస్ వే ఏతత్తదోః విహితస్య సోహు లోపః ఇతి కృతే కిం భవతి సమాసే పరమస పరమశ్చాసౌ సహ చ ఇతి పరమసః ఇత్యత్ర సులోపః న స్యాత్ తత్రాపి ఇష్యతే అతః ఏవం అర్థః క్రియతే అర్థద్వారక సంబంధాశ్రయణే లింగం తు అనైసమాసే ఇతి బోధ్యం సో బికాస్ హి సేస్ అనైసమాసే వి నో దట్ వి ఆర్ టేకింగ్ దిస్ ఇంటర్ప్రిటేషన్ యది సమాసే ప్రాప్తిరేవ నాస్తి తర్హి అనైసమాసే ఇతి నిషేధః న వక్తవ్యః నిషేధః ఉచ్యతే ఇత్యనేనైవ జ్ఞాయతే ఏతాదృశః అర్థః యత్ర సుప్రత్యయః ఏతచ్ఛబ్దస్య సంఖ్యామభిదత్తే అథవా తచ్ఛబ్దస్య సంఖ్యామభిదత్తే తత్ర సులోపః భవతి అకోః కిం ఏషకో రుద్రః ఇతి దీయతే అకకారయోః ఇతి ఉక్తం ఏతచ్ఛబ్దే వా తచ్ఛబ్దే వా కకారః నాస్తి తర్హి అకకారయోః ఇతి కిమర్థం వక్తవ్యం ఏషకః ఇది అకచ్ ఇది ప్రత్యయః అస్తి అవ్యయ సర్వనామ్నాం అకచ్ ప్రాక్తేః ఇత్యనేన అకచ్ ప్రత్యయః విధీయతే తత్ ప్రత్యయాంతస్య లోపః న స్యాద్ ఇత్యతః అకోః నామ అకకారయోః ఇది ఉచ్యతే కింతు तत्र साकच्कयोः शब्दांतरत्व अप्रसंगः एष इति शब्दः अस्ति यदि अथवा एतद् इति शब्दः अस्ति अकच् प्रत्यये कृते एतकद् इति भवति प्राक् टेः प्राक् अकच् प्रत्ययः अतः एतकद् इति भवति एवं तद् इत्यस्ति चेत् तकद् इति भवति साकच्कयोः शब्दान्तरत्वात् अयं भिन्नशब्दः किल एतत् शब्दः भिन्नः एतकद् शब्दः भिन्नः सूत्रे तु एतत् तदोः इत्येव उच्यते तर्हि पुनः अककारयोः इति किमर्थं वक्तव्यम् साकच्कयोः शब्दान्तरत्वात् अप्रसङ्गः इति प्रश्नः एषक इति अकोः इति प्रतिषेधः एव तन्मध्यपतितः तद्ग्रहणेन गृह्यते इति परिभाषां ज्ञापयति इति भावः वस्तुतः यदि अकश् प्रत्ययान्तः भिन्नशब्दः तर्हि अकोः इति व्यर्थम् व्यर्थं सद् ज्ञापयति किं ज्ञापयति तन्मध्यपतितः तद्ग्रहणेन गृह्यते यत्र मध्ये किञ्चित् आगमः वा यत्किञ्चित् भवति तद्ग्रहणेन गृह्यते अयम् अकच् प्रत्ययः मध्ये भवति अतः एतकत् शब्दः अपि एतच्छब्देनैव गृह्यते इति परिभाषा सा परिभाषा अनेनैव ज्ञाप्यते सो वाट् प्रूव्स् हिम् सेयिङ्ग् अकोः हियर् इट्सेल्फ् प्रूव्स् दट् दिस् परिभाषा एक्सिस्ट्स् अदर्वैस् सेयिङ्ग् अकः इस् नाट् नेसेसरि अकः अकोः इति वचनं व्यर्थम् व्यर्थं स ज्ञापयति तन्मध्यपरितः तद्ग्रहणेन गृह्यते इति अकोः इति प्रतिषेध एव ज्ञापयति कौमुद्यां स्वादिसन्धिप्रकरणे अन्तिमं सूत्रमस्ति सोचिलोपे चेत् पादपूरणम् सस् इत्यस्य सोः लोपः स्यात् अचि पूर्वत्र तु हलि सर्वदा लोपः उक्तः किन्तु अचि अपि सोः लोपः भवति तच्छब्दस्य कदा पादश्चेत् लोपे सत्येव पूर्येत सो वृत्तविषये इट् इस् वित् रिगार्ड् टु द मीटर्स् आफ् द छन्दस् यदि लोपे कृते एव पादपूरणं भवति पादपूरणे नियमाः सन्ति एषः वर्णः लघुरेव भवेत् गुरुरेव भवेत् इत्यादि लोपे कृते यदि पादपूरणं भवति तर्हि लोपः भवितुम् अर्हति सेमाम् अविद्धि प्रभृतिं य ईशिषे स इमाम् इत्यस्ति सः इमाम् इति स्थिते यदि लोपः न क्रियते तर्हि स इमाम् इति भवति सर् इमाम् भो भगो अघो अपूर्वस्य योषि इत्यनेन यत्त्वं तस्य लोपः लोपशाकल्यस्य स इमाम् इति भवति स इमाम् अविद्धि प्रभृतिं सो देर् इस् एन् अडिशनल् लेटर् हियर् यु केनाट् डू सन्धि पूर्वत्रासिद्धम् इत्यस्मात् सन्धि कर्तुं न शक्यते तदा पादः न पूर्यते द पाद विल् नाट् हाव् द रिक्वैर्ड् नम्बर् आफ् लेटर्स् अतः किं क्रियते सका सुप्रत्ययस्य लोपः स स इत्युक्ते सुवः लोपः स ईशिषे इति स्थिते क्षम्यतां स इमाम् इति स्थिते आद्गुणः इत्यनेन गुणः बिकास् दिस् सूत्र इस् सिद्ध 61134 इस् सिद्ध अतः स इमाम् आद्गुणः इत्यनेन गुणे सेमाम् इति रूपं सिद्ध्यति सो इफ् यु डोण्ट् डू द लोपा स इमाम् इति कृते पादः न पूर्यते लोपे कृते सेमाम् इत्यनेन तु पादः पूर्यते अतः सोचिलोपे चेत् पादपूरणम् इत्यनेन लोपः क्रियते इह ऋक्पाद एव गृह्यते इति वामनः सो वामनस्य मतेन ऋचः पादाः एव गृह्यन्ते अविशेषात् श्लोकपादोऽपि इति अपरे किन्तु बहूनां मते साधारणश्लोकानां न तु केवलं ऋचाम् अन्येषां श्लोकानामपि पादाः गृह्यन्ते सैष दाशरथी रामः इत्यस्ति सैष स एष इति भवेत् स एष इति स्थिते पादपूरणं न भवति यतः अनुष्टुब् पादे अष्टौ अक्षराणि भवेयुः स एष दाशरथी रामः इत्युक्ते नव अक्षराणि पादः न पूर्यते अतः स एष सुप्रत्ययस्य लोपे वृद्धौ सैषदाशरथी रामः लोपे चेत् इति किम् लोपे पादपूरणं चेदेव अथवा लोपे सत्येव यदि पादः पूर्येत स इत्क्षेति इत्यस्ति स एवम् उक्त्वा अतः वाक्ये सो दिस् इस् अ वाक्य नाट् अ छन्दोबद्ध थिङ्ग् सो पादपूरणस्य प्रश्नः नास्ति तर्हि लोपः न भवति सो वि विल् नाट् डू द लोप इफ् इट् इस् नाट् required for Padapurana. Satyeva iti avadharanam tu syaschandasi bahulam iti purva sutrat bahulagrahana anuvrutya labhyate. So lope satyeva yadi padaha purieta. Lope sati padaha purieta iti anukva. Lope satyeva yadi padaha purieta. It means if we do not do the lopa, it will not fit into the meter. Only if we do the lopa, it will fit into the meter. So in only such cases we do the lopa. Tat katham labhyate avadharanam satyeva iti avadharanam lope chet padapuranam itteva sutre asti satyeva iti avadharanam tu syaschandasi bahulam iti purva sutran bahulagrahana anuvrutya labhyate. Tatra manoramayam bahulagrahanasya visaye uchyate tena ihana sohamajanma shuddhanam iti kaumudyameva pratyudaharanam. Atra kim asti sa saha aham iti asti yadi lopaha na kriyate sayu sa sar aham ator or aplata aplate etyanena utvam soham iti rupam yadi lopaha kriyate sa su aham sakarase lope sa aham saham ajanma shuddhanam iti bhavati. Lope akrite api padaha puryate lope krite api padaha puryate. Okay, so in both cases there is padapurana. So should we do lopa? We should not, because lopa applies only if the pada is, if it fits to the meter after doing the lopa. If it does not fit without lopa, only then we apply lopa. Tena ihana sohamajanma shuddhana bahulagrahaneti atayeva lopam vina padapurane purane api kvachit bhavati. He says because it is bahula. Bahula is always kvachit pravrittihi, kvachit apravrittihi, kvachit vibhasha, kvachit anyadeva. So, kvachit in a few cases, lopam vinapadapurane api. Even though the meter fits, even without doing the lopa, we see that lopa has been done. Sasma aram. So, it is from some Veda. Saha asmai iti chedaha. So, saha asmai. Yadi lopaha na kriyate tarhi sosmai iti bhavati. No chet sasmai iti bhavati. Atra lopam vina api padaha puryate. Tatha api lopaha krutaha drishyate kintu kvachideva. So, it's in rare cases. Mostly, yadi lopam vina padaha na puryate, lope satyeva puryate, tatraiva asya sutrasya pravrutti. Sochi lope chet padapuranam. So, sosma aram, sasma aram, uhayathapi padapurane satyapi lopaha krutaha, bahulagrahanat samarthyate. Yes. So, that is the end of Swadhisandhi Prakarana. And we have completed the Panchasandhi Prakarana of the Manora. I think there was a mistake in shloka, in sutra number in one of the sutras. I think it is etattado sulopaha. I'll correct it later. Any questions? So, I'll upload these and I'll also upload a few questions regarding the Visarga Sandhi and Swadhi Sandhi in the portal. So, with that, I think we are done with this course. So, thank you all for actually attending. Because I know of many Vidwans who say that they don't have students who listen to Shastra Patha. So, Kaumudi, in Kaumudi there are students, but above the Kaumudi for actual Shastra Granthas, there are very few students who actually, you know, study it. And especially study it with interest. So, it's been very nice teaching this course. Thank you. Dhyayan dhyayam param brahma smaram smarangurur giraha सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रौढमनोरमाम्। श्रमेव जायते, श्रमेव जायते। वी वर आल्सो टॉकिंग अबाउट इट, इट शुड हैव बीन श्रमः एव, दैट इज डेफिनेटली नॉट पादपूरण। Yes, Sadagopan.
Thank you.
So, yeah. Thank you. So, what next is, I don't know, I mean, yeah, Prodhamanorama is over, so I guess I'll take a break for some days because there are some things. On the Shastra thing, I want to do Paribhasha in the Shekhara, probably, but that will probably not start anytime soon, not within the next few months at least. Probably after a few months I might start Paribhasha Indra Shekhara. So for now, it's just the Tinganta Prakriya course. Okay, so, but I'll start sometime. Yeah, yeah, sure. I'll definitely do it because of it. As I said, teachers, at least to stay in touch with the Shastra, we need to teach. Teaching is the only way to stay in touch with the Shastra. And दिनादूर्ध्वम् अशाब्दिकः इज अ सेइंग, क्षणादूर्ध्वम् अतार्किकः, दिनादूर्ध्वम् अशाब्दिकः। सो वैयाकरण, इफ ही डज नॉट टच द शास्त्र फॉर वन डे, ही इज नॉट वैयाकरण बिकॉज ही टेंड्स टू फॉरगेट। द शास्त्र इज वेरी वेरी ट्रेचरस एंड सो तर्क इज इवन मोर, क्षणादूर्ध्वम् अतार्किकः। सो इफ यू लूज इट फॉर अ क्षण, देर इज नो दिस। So yeah, I will start. Yeah, the Kaumudi also, I have stopped at Karaka. I should start the Samasa part of it. I will. I'll decide which is next and we'll surely do it. So there is a question, Shrama Eva, how is the Lopa? There is no Lopa. It is wrong. I mean, so it should have been Shrama Eva, that it's probably done with, you know, I mean, it's a mistake, an error. So you cannot justify it. Shrama Eva, there is no Shishta Prayoga to justify it. And it is not a Padapurana, so you cannot use this sutra. It's plain wrong. So, Shrama Eva Itteva Bhavet. Probably Satyam Eva Jayate, it's Anukaranat Shrama Eva Jayate Iti Syat. Yes, Sadagopan Mahore. Prashna Hastya, Athava Hastya. I think you have self-muted. You should unmute yourself.
No, no, probably, I don't know. Probably it is some eva jayate. Some in Hindi is whatever we are talking about. Some
eva. Yeah, but then... Yeah, you can say that, but then the Sanskrit Sanji will not apply. Yeah, yeah, that's also. If it is taken as a tagline, yeah.
Thank you.
Yeah.
Thank you.
Yeah.
And then this last saying you said is, what is it? If you don't do it for a day or. You send it in Devanagari by email.
Yeah, sure.
Like
yeah, yeah, sure. Yeah.
Thank you. Thank you. It will remain me.
Yeah, sure. That's an excellent
experience. Not yeah. that I understood everything. No.
Shastra is like that. You should read more. I mean, if you go to the Laghu Shabda in the Shekhara, you will understand Prodhamanorama very easily. That is how Shastra is always. You go further on only then. I mean, now Siddhanta Kaumudi at least should be pretty clear with the Manorama. So, yes, Muthulakshmi. Yeah, thank you very much.
Yeah, it was really, really interesting course.
Yeah, thank you. So,
yeah, and really looking forward to doing further.
Yeah, yeah, sure, definitely. As I said, myself, I'll keep doing these. So, it will be nice to have you all again.
And that Samasa CD, I was not able to access the site and get it.
Is it?
So many times I put in the money, it was not going through.
Is it? So just send me one link. I will forward it to the administrator. He should be able to help. Yeah? Please send me
one. I'll do that. Yeah, I'll do that. Thank you so much, and really it was very nice of you to have taught us.
Thank you.